इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी दिल्ली नगरे बहुविध विकास परियोजनां समेत्य साहिबाबाद न्यूयॉर्क नगरयोः मध्ये न्यू अशोक नगरयोः मध्ये नमो भारत रैपिड रेल कॉरिडोर इत्येतस्य अपि उद्घाटनं कृतवान्। प्रशासनम् अवोचत् यत् अंकीय वैयक्तिक दत्तांश संरक्षण नियमानां प्रारूपस्य उद्देश्यं नागरिकाणां वैयक्तिक दत्तांशस्य संरक्षणार्थं अधिकाराणां रक्षणम् अस्ति। केन्द्रीय स्वास्थ्य मन्त्रालयः न्यगदयत् यत् चीनदेशे एचएमपी संक्रमण प्रसारस्य विषये मन्त्रालयः अविरतं निरीक्षणं कुर्वन् अस्ति, जनान् च सामान्यान् सावधानान् स्वीकर्तुम् उद्बोधयत्। छत्तीसगढ़ राज्ये अद्य सुरक्षा सेनया सह संघर्षे न्यूनातिन्यूनं चत्वारः माओवादिनः व्यापादिताः। अपि च क्रीडा वार्तासु, क्रिकेट क्रीडायां निकष स्पर्धायां सिडनी नगरे पञ्चमान्तिम निकष स्पर्धायां ऑस्ट्रेलिया दलेन भारतं 6-2 पराजितम्। एवं च बॉर्डर गावस्कर ट्रॉफी इति 3-1 इत्यंकांतरालेन विजितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्ली नगरे 2,12,000 crore rupees बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। असौ साहिबाबाद न्यू अशोक नगरयोः मध्ये दिल्ली गाजियाबाद मेरठ नमो भारत इत्येतस्य 13 किलोमीटर मितस्य दीर्घमार्गस्य अपि उद्घाटनम् अकरोत्, यस्य व्ययः प्रायः 6,46,000 crore rupees वर्तते। प्रधानमन्त्रिणा साहिबाबाद आरआरटीएस स्थानकात् न्यू अशोकनगर आरआरटीएस स्थानकं यावत् नमो भारत मेट्रो रेल याने यात्रा कृता तथा च विद्यालयीय बालकैः सह संवादः कृतः। एतदतिरिच्य श्रीमोदी दिल्ली मेट्रो चतुर्थ चरणस्य अन्तर्गतं जनकपुरी कृष्णा पार्क इत्येतयोः मध्ये प्रायः 1,200 crore rupees व्ययेन 8.2 km मितस्य दीर्घमार्गस्य उद्घाटनम् अकरोत्। अनेन नूतन मार्गेण पश्चिमीय दिल्ली प्रदेशस्य कानिचन क्षेत्राणि यथा कृष्णा पार्क, विकासपुरी प्रदेशस्य केचन भागाः, जनकपुरी इत्यादीनि क्षेत्राणि लाभं प्राप्स्यन्ति। एतदतिरिच्य प्रधानमन्त्री मोदी दिल्ली मेट्रो चतुर्थ चरणान्तर्गतं 5.26 km मितस्य रिठाला कुण्डली इत्येतस्य खण्डस्य शिलान्यासमपि अकरोत्, यस्य व्ययः प्रायः 30.26 crore rupees आसीत्। अयं मार्गः दिल्ल्याः रिठालाक्षेत्रं हरियाणायाः नाथूपुरक्षेत्रेण सह संयोजयिष्यति। श्रीमोदिना नवदिल्ल्याः रोहिणीक्षेत्रे केन्द्रीय आयुर्वेद अनुसंधान संस्थानस्य कृते नूतनस्य अत्याधुनिक भवनस्य आधारशिला स्थापिता। अयं परिसरः अत्याधुनिक स्वास्थ्य सेवा चिकित्सा आधारभूत संरचना च प्रदास्यति। परियोजनायाः उद्घाटनेन क्षेत्रीय सम्पर्कं वर्धयितुं साहाय्यं भविष्यति तथा च दिल्ल्याः जनेभ्यः यात्रा सरला भविष्यति। अनन्तरं रोहिणी क्षेत्रस्य जपानी पार्क इत्यत्र एकां जनसभां सम्बोधयन् श्रीमोदी अवदत् यत् दिल्ल्याः विकासाय आगामी 25 वर्षाः महत्वपूर्णाः सन्ति। प्रधानमन्त्रिणा दिल्लीं विकसित भारतस्य राष्ट्रिय राजधानी रूपेण विकसितुं बलं प्रदत्तम्।
साल भारत के भविष्य के लिए, दिल्ली के भविष्य के लिए बहुत ही महत्वपूर्ण है। ये 25 साल भारत को विकसित राष्ट्र बनते हुए देखेंगे। ये भारत को आधुनिकता के एक नए दौर से गुजरते हुए देखेंगे।
प्रशासनम् अवोचत् यत् अंकीय वैयक्तिक दत्तांश संरक्षण नियमानां प्रारूपस्य उद्देश्यं नागरिकाणां वैयक्तिक दत्तांशस्य संरक्षणार्थम् अधिकाराणां रक्षणम् अस्ति। एते नियमाः 23-2000 दत्तांश संरक्षण अधिनियमस्य कार्यान्वयनं कर्तुं प्रयतन्ते, यत् अंकीय वैयक्तिक दत्तांशस्य संरक्षणार्थं दृढसंरचनां निर्मातुं भारतस्य प्रतिबद्धतायाः अनुरूपमस्ति। नियमोऽयं दत्तांशस्य अनधिकृत व्यावसायिक प्रयोगः, अंकीय हानिः, वैयक्तिक दत्तांश उल्लंघनम् इत्यादयः विशिष्ट समाह्वानान् अपि सम्बोधयति। केन्द्रेण अंकीय वैयक्तिक दत्तांश संरक्षण नियमः प्रकाशितः। अश्विनी वैष्णवः अवोचत् यत् प्रारूपोऽयं परामर्शार्थं नियमान् कल्पयति, सममेव जनान् विचारान् अगृह्णात्। प्रारूप नियमानां विषये स्वमन्तव्याः फरवरीमासस्य 18 दिनांकं यावत् MyGovPortal इति माध्यमेन प्रेषयितुं शक्नुवन्ति। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र, अत न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य उक्तवान् यत् यावत् देशस्य नागरिकाः राष्ट्रवादं प्रति गभीरतया प्रतिबद्धाः न भवन्ति, तावत् कोऽपि देशः वर्धितुं न शक्नोति। दिल्ल्याम् अस्य वर्षस्य एनसीसी गणतन्त्र दिवस शिबिरस्य यात्रां कुर्वन् श्रीधनखड़ः अवदत् यत् भारतस्य विकासाय राष्ट्रवादः, संघटनं, राष्ट्रप्रथम उपगमः च आवश्यकाः सन्ति। उपराष्ट्रपतिः बलं दत्तवान् यत् राष्ट्रस्य परिवर्तनं पञ्चमूलस्तम्भेषु आधारितमस्ति, यथा सामाजिक सौहार्दः, मूलस्तरे देशभक्ति मूल्याणि, पर्यावरण जागरूकता, आत्मनिर्भरता, नागरिक कर्तव्यानि च। केन्द्रीय स्वास्थ्य मन्त्रालयः न्यगदयत् यत् गत सप्ताहेषु चीनदेशे HMP संक्रमण प्रसारस्य विषये मन्त्रालयः अविरतं निरीक्षणं कुर्वन्नस्ति। मन्त्रालयः अवोचत् यत् ACMR द्वारा HMPV इत्यस्य परीक्षणस्य प्रयोगशालानां संख्या वर्धिष्यति। सममेव अशेषे वर्षे HMPV इत्यस्य प्रवृत्तेः निरीक्षणं करिष्यति इति आश्वासयत्। स्वास्थ्य सेवा महानिदेशकाध्यक्षस्य अध्यक्षतायां मन्त्रालयेन नवदिल्ल्याः संयुक्त निरीक्षण समूहस्य उपवेशनमपि आहूतम्। स्वास्थ्य सेवा महानिदेशकः डॉ अतुल गोयलः जनान् आश्वासितवान् यत् वर्तमान स्थितिं प्रति शंकितुं किमपि नास्ति इति, जनान् च सामान्यान् सावधानान् कर्तुम् उद्बोधयत्। छत्तीसगढ़ राज्ये अद्य सुरक्षा सेनया सह संघर्षे न्यूनातिन्यूनं 4 माओवादिनः व्यापादिताः। अस्मिन् संघर्षे 1 सुरक्षाकर्मी अपि दिवंगतः। सुरक्षा सैनिकाः मृतानां माओवादिनां शवान् प्राप्तवन्तः। घटनास्थले AK-47 सेल्फ लोडिंग राइफल इत्येतानि समेत्य अत्यधिक मात्रायां आयुधानि, स्फोटकास्त्राणि च प्राप्तानि। अस्मिन् क्षेत्रे अन्वेषणकार्यम् अधुनापि प्रचलति। अस्य वर्षस्य 18 प्रवासी भारतीय दिवसः PBD सम्मेलनं जनवरी मासस्य 8 दिनांकात् ओडिसायाः भुवनेश्वरे भविष्यति। अवधेयं यत् विदेशमन्त्रालयः अब्रवीत् यत् सम्मेलनस्यास्य विषयो विकसित भारताय प्रवासिनां योगदानम् इत्यस्ति। PBD इति सम्मेलने भागं ग्रहीतुं 5,500+ विभिन्नेभ्यः देशेभ्यः भारतीय प्रवासिनः सदस्याः पञ्जीकरणं कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य 9 दिनांके PBD सम्मेलनस्य उद्घाटनं विधास्यति। सम्मेलनेऽस्मिन् मुख्यातिथिः ट्रिनांग्डेन टोबेगो गणराज्यस्य राष्ट्रपतिः क्रिस्टेन कार्ला कांगालू आभासीय उद्बोधनं च विधास्यति। भारतीय ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीर, लद्दाख, हिमाचल प्रदेशेषु च अल्प मध्यम वृष्टेः, हिमपातस्य च अनुमानं कृतम्। क्रिकेट क्रीडायां निकष स्पर्धायां सिडनी नगरे 5मान्तिम निकष स्पर्धायां ऑस्ट्रेलिया दलेन भारतं 6 पराजितम्। एवं च बॉर्डर गावस्कर ट्रॉफी इति त्रीणि एकम इत्यंकांतरालेन विजितम्। अद्य तृतीये दिने ऑस्ट्रेलिया दलेन 260+100 धावनांकानां लक्ष्यं सफलतया प्राप्तम् इति वार्ताः।